प्रियाः श्रोतारः, आकाशवाण्याः सुविशिष्टायाः श्रव्य संस्कृत पत्रिकायाः संस्कृत साप्ताहिक्याः अभिनवे अंकेस्मिन् भवताम् समेषाम् हार्दिकम् स्वागतम् अभिनन्दनम् च। भवताम् सहृदयानाम् मनोविनोदकरम् अंकम् आदाय पुनरेकदा उपस्थितोऽस्मि अहम् दिव्यानन्द झा। अयि सुधियः श्रोतारः, जानीमः वयम् यत् पृथिव्याम् विद्यमानेषु त्रिषु रत्नेषु अन्यतमम् सुभाषितम् विलसति। अद्य एतादृशमेव सुभाषित रत्नमेकम् आदाय उपस्थितोऽस्ति मम सहयोगी पुनीत त्रिपाठी। तर्हि श्रूयताम् भवद्भिः।
क्षमया दयया प्रेम्णा सुनृतेनार्जवेन च वशीकुर्याद् जगत्सर्वम् विनयेन च सेवया।
मित्राणि, सम्प्रति अग्रेसरामः प्रसङ्गप्रभागम् प्रति। प्रभागेऽस्मिन् अद्य देवाधिदेवस्य भगवतो विश्वनाथस्य भावपूर्णम् स्तवनम् विदधाति अस्मदीया सहयोगिनी रिंकू जोशी।
आत्मा त्वं गिरिजामतिः सहचराः, प्राणः शरीरं गृहं, पूजाते विषयोपभोगरचना, निद्रा समाधिस्थितिः, सञ्चारः पदयुः प्रदक्षिणविधिः, स्तोत्राणि सर्वागिरो, यद्यत् कर्म करोमि तत्तदखिलम्, शम्भूतवाराधनम्, करचरणकृतम् वाक्कायजम् कर्मजम् वा श्रवणनयनजम् वा मानसम् वापराधम् विहितमविहितम् वा सर्वमेतत् क्षमस्व। जय जय करुणाब्धे श्रीमहादेव शम्भो।
अयि जागरूकाः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। अद्य अशेष जगतः साप्ताहिकीः वार्ताः आदाय उपस्थितास्ति कामना झा।
नौसेना प्रमुखः एडमिरल दिनेश त्रिपाठी उक्तवान् यत् आगामीषु दशवर्षेषु भारतीय नौसेनायां 96 जलयानानि अन्तर्जालपोताश्च सम्मेलिताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी चण्डीगढे नूतनाः आपराधिक विधयः राष्ट्राय अर्पितवान्। भाजपेति दलस्य वरिष्ठः नेता देवेन्द्र फडणवीसः तृतीयवारं महाराष्ट्रस्य मुख्यमन्त्रित्वेन शपथं गृहीतवान्। इसरो इत्यनेन भारतीय अन्तरिक्ष अनुसन्धान संघटनेन श्रीहरिकोटायाः सतीश धवनान्तरिक्ष केन्द्रात् PSLV-C59 PROBA-3 इत्यस्य प्रक्षेपणीयान् विषयस्य सफल प्रक्षेपणम् कृतम्।
अयि मान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकम् संवादाय उपस्थिताः विद्यन्ते भारतीय संविधानस्य संस्कृतानुवादिकेषु अन्यतमाः उत्तरप्रदेशे लखीमपुरस्थे युवराज दत्त स्नातकोत्तर महाविद्यालये सहायकाचार्याः डॉक्टर श्वेतांक भारद्वाज महाभागाः। सम्प्रति अस्मदीय सहयोगिना पुनीत त्रिपाठिना साधितेन संवाद माध्यमेन जानीमः एतन्महनीय कृत्य विषयकम् भारद्वाज वराणाम् अनुभवम्।
नमो नमः प्रियाः श्रोतारः, यथा वयम् सर्वे जानीमः यत् गत सप्ताहे सम्पूर्णे देशे संविधान दिवसः महता उत्साहेन आचरितः। अस्माकं सर्वेषां संस्कृत प्रेमिणां कृतेपि दिवसः अतीव विशिष्टः आसीत्, यतोहि देशस्य राष्ट्रपतिः द्रौपदी मुर्मुः संविधानस्य अनुदितं तृतीय संस्करणं संस्कृत भाषायां विमोचितवती। तावदद्य अस्माभिः सह आकाशवाण्याम् उपस्थितः अस्ति उत्तरप्रदेशस्य लखीमपुरस्य युवराज दत्त स्नातकोत्तर महाविद्यालयस्य सहायकाचार्यः, भारतीय संविधानस्य संस्कृतानुवादकेषु अन्यतमः, श्रीमान् श्वेतांक भारद्वाजः वर्यः। महोदयः, अस्मिन् ज्ञान विज्ञान प्रभागे अहम् पुनीत त्रिपाठी भवतां स्वागतं करोमि।
नमस्कारः, अहम् अनेन कार्यक्रमेण आनन्दम् अनुभवामि।
महोदय, सर्वप्रथमं ज्ञातुमिच्छामि, यथा सर्वे जानन्ति यत् सम्पूर्ण संविधानस्य अनुवादः संस्कृतभाषायां जातः, भवानपि अनुवाद हेतुः समित्याम् अनुवादकर्ता आसीत्, भवत् अनुभवः कथम्?
महत्प्रमोदस्य विषयः यत् संविधानदिवसावसरे अस्माकं भारतदेशस्य राष्ट्रपतिना तथा प्रधानमन्त्रिणा संसदि संस्कृतभाषायां भारतस्य संविधानस्य तृतीयं संस्करणं लोकार्पितम्। यथा वयं सर्वे जानीमः यद् बहुवर्षेभ्यः प्राक् प्रख्यातसंस्कृतज्ञैः विधिविशारदैः यथा श्रीपाण्डुरङ्गवामनकाणे महाभागैः, श्रीलक्ष्मणशास्त्रीजोष्यादिमहाभागैः द्विपञ्चाशत्तमं संशोधनम् इति अधिनियमपर्यन्तम् अनुवादः उत भाषान्तरमिति कृतम्। तदारभ्य यानि खलु संविधानस्य संशोधनानि सञ्जातानि तेषां समेषां संशोधनानां भाषान्तराय, अद्यतनीकरणाय तथा संविधानस्य तृतीयं संस्करणं प्रकाशनाय राष्ट्रिय अनुवाद मिशन, भारतीय भाषा संस्थानं मैसूरु इत्यनेन कार्यशालाः आरब्धाः। एवं त्रयोविंशत्यधिकद्विसहस्रतमस्य वर्षस्य सितंबर मासे मैसूरनगरे भाषान्तरार्थं प्रथमा कार्यशाला संजाता। कार्यक्रमेऽस्मिन् दशजनाः भाषान्तराय तथा परिशीलनाय उपस्थिताः आसन्। अहमपि अस्यां कार्यशालायां विशेषज्ञरूपेण आसम्। एष अनुभवः न केवलं गौरवप्रदः अपि तु महनीयः आसीत्, यतोहि संविधानं न केवलं भारतस्य राजनीतिकं सामाजिकं च दर्पणम् अपि तु सर्वतोमुखविकासस्य मार्गदर्शकम् अपि वर्तते। पूर्वभाषान्तर्वत् अस्मिन्नपि संस्करणे अभिनवपारिभाषिकशब्दानां निर्माणम् अङ्गीकरणञ्च आवश्यकम् आसीत्। एतदर्थं कार्यशालायां ये खलु विद्वांसः उपस्थिता आसन् तैः यथामति यथा योग्यं नूतनशब्दानां प्रयोगः कृतः। पञ्चकार्यशालाभिः व्याप्तः एषः प्रकल्पः केवलम् अस्माकं विद्वत्तायाः परिशीलनं न अपि तु संविधानस्य गौरवं संरक्षितुं दायित्वभावोऽपि आसीत्।
निर्मितसमित्यां सम्मुखे अनुवादप्रक्रियायां समागतानां समस्यानां विषयेऽपि प्रतिपादयन्तु।
भारतस्य संविधानस्य भाषान्तरे काश्चित् समस्याः अपि समक्षमागताः। क्रमेण विचारयामः यथा इदं तृतीयं संस्करणं पूर्वभाषान्तरानुरूपं भवेत् इति। इतः पूर्वं यद् भाषान्तरमासीत् तत्रोपनिबद्धाः शब्दप्रयोगाः, लेखनरीत्यः, वाक्यविन्यासादयः अस्माभिरनुसरणीयाः आसीत्। एतदर्थं कस्यापि वाक्यस्य भाषान्तरात् प्राक् पूर्वसंस्करणस्य अवलोकनं कृत्वा तत्र के पारिभाषिकशब्दाः प्रयुक्ताः इत्यपि अस्माभिः विचारितम्। पूर्वसंस्करणस्य समीक्षणेन ज्ञातं यत् तत्र तु सर्वजनार्थगमनाय प्रायः प्रसिद्धशब्दानाम्, असमस्तपदानां, सरलवाक्यानां च आश्रयः स्वीकृतः। एतदेव रीतिः आधुनिकभाषाविदैः अपि अनुपालिता। अतेव संस्करणेऽस्मिन्नपि सरलशब्दानां प्रयोगः, संहितायाः यथासम्भवं वैकल्पिकी व्यवस्था अनुपालिता। एतदर्थं भाषान्तराय अस्माकं ध्येयवाक्यमासीत् ऐदर् वि कुड् बि फेथ्फुल् और् ब्यूटिफुल्, वयं निष्ठावन्तवः मनोहराः वा भवेम इति। शब्दानां तथा वाक्यानां भावपुरःसरं भाषान्तरम् उत मूलभावस्य अक्षुण्णता, संविधानस्य पाठे विधिप्रयोगे विशिष्टं गांभीर्यम् अस्ति। अतः नागरिकाधिकारः, राज्यसंघटनम् इत्यादीनां पारिभाषिकशब्दानां केवलं भाषान्तरमेव न कृतम्, अपि तु तेषां गूढार्थस्य तथा प्रासंगिकतायाः निर्वचनमपि प्रतिपादितम्। संस्कृतं भारती वा शब्ददृष्ट्या समृद्धभाषा वर्तते, किन्तु आधुनिकविधिपक्षे भाषायाम् अभिनवशब्दानां सर्जनम् अतीवजटिलं कार्यम् अभवत्। वस्तुतः भाषान्तरे मूलपाठस्य अन्तर्निहितभावस्य संरक्षणं कर्तव्यम् इति अस्माकं विचारः। यथा वर्सेस् इति पदस्य भाषान्तरे विरुद्ध, उत, परम् इत्यनयोः शब्दयोः संस्कृतानुवादे मूलभावं संरक्षितं तथा सर्वेषां बोधगम्यं कर्तुं समितिः वादञ्चकार। एवमेव भिन्नमतानां सामञ्जस्यम्। पञ्चकार्यशालासु विद्यमानाः विद्वज्जनाः विविधपृष्ठभूमेः समागताः, तेषां परस्परभिन्नमतानां मध्ये सामञ्जस्यं साधयित्वा एकं सुसङ्गतं पाठं प्रस्तोतुं समेषां मतैक्यता भवेत् इत्यपि अस्माभिः साधितम्। ततः विधिशास्त्रम् उत सांस्कृतिकप्रतीकम् इति समस्या। यथा संविधानं केवलं विधिग्रन्थः न, अपि तु एकं सांस्कृतिकप्रतीकम् अपि अस्ति। परञ्च भाषान्तरे अनयोः विधिदृष्टिरेव बलवती। वस्तुतः भाषान्तरमिदं सर्वजनावगमनाय भवेद्, एतदर्थम् अस्माभिः यथासम्भवं प्रयासः कृतः।
सम्पूर्णसंस्कृतजगति संविधानस्यास्य अनुवादस्य के प्रभावाः सन्ति इति भवान् कृपया एतस्मिन् विषयेऽपि स्वविचारं प्रकटयतु।
साधु पृष्टं भवता, अस्य संविधानस्य बहूनि प्रयोजनानि भविष्यन्ति, उत जगति संविधानस्य अस्य बहवः प्रभावः भविष्यन्ति। यथा वयं जानीमः, भारतस्य संविधानस्य संस्कृतभाषायां भाषान्तरमिदम् अनेकविधप्रभावयुक्तं स्याद् इति अस्माकं भाषान्तरकाराणां प्रयासः आसीत्। वस्तुतस्तु इदं कार्यं तु केवलम् आकाद्मिकं कार्यं न, अपि तु सम्पूर्णसंस्कृतजगतः कृते, उत भारतीयानां कृते महनीयं योगदानं वर्तते। अत एव अस्य खलु अनेकानि प्रयोजनानि भवितुमर्हन्ति। यथा संस्कृतभाषायाः सशक्तिकरणं, संविधानस्य संस्कृतानुवादः, भाषायाः साम्प्रतिकसन्दर्भेषु उपयोगस्य प्रमाणं दर्शयति। संस्कृतं केवलं प्राचीनपाठानां भाषा न, अपि तु आधुनिकविधिप्रयोगाय अपि उपयुक्ता भाषा अस्ति इति अस्माभिः प्रदर्शितम्। एवमेव सांस्कृतिकसमृद्धिः। संस्कृतं न केवला भाषा, अपि तु भारतस्य संस्कृतिः, परम्परा च। भारतस्य संविधानस्य संस्कृतसंस्करणमिदं तस्य सांस्कृतिकमहत्त्वं तथा भाषिकगौरवं च चिरकालपर्यन्तं संरक्षितुम् उपयुक्तं भविष्यति। एवमेव वैश्विकपटले संस्कृतस्य प्रतिष्ठा। संस्कृतं केवलं भारतस्य सम्पदा न, अपि तु विश्वस्य प्राचीनज्ञानभाषा अस्ति। संविधानस्य संस्कृतानुवादाः तस्य वैश्विकस्तरे प्रतिष्ठां वर्धयिष्यतीति। भाविभाषान्तराय अपि योगदानं दास्यति। यथा स्मारकाः क्षीयन्ते, किन्तु इमे अनूदितशब्दाः भाविभाषान्तराय यथासम्भवं सहायकाः भवेयुः। एवं कार्यमिदं न केवलं भाषान्तरम्, अपि तु अन्यतमा राष्ट्रीयसेवा, एकः सांस्कृतिकसंवर्धनप्रयासः तथा भाषायाः पुनरुत्थाय सङ्कल्पः इति मम विश्वासः। आकाशवाण्याः संस्कृतसाप्ताहिकी इति कार्यक्रमे भागग्रहणाय आमन्त्रणं प्राप्तम्। तदर्थम् आकाशवाण्यै पुनीतत्रिपाठीमहोदयाय हार्दं धन्यवादं निवेदयामि। एषोऽवसरः मत्कृते संस्कृतभाषायाः कृते च सौभाग्यस्य विषयः। एतादृशः उपक्रमः अग्रेपि स्यादिति अहं कामये। पुनश्च धन्यवादः।
धन्यवादः महोदयः।
अयि संस्कृत प्रेमिणः आगच्छन्तु संस्कृत दिग्दर्शिनी प्रभागे यत्र विश्वस्मिन् अपि विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीयः सहयोगी पुरुषोत्तम शर्मा।
तिरुपति स्थिते राष्ट्रिय संस्कृत विश्वविद्यालये दक्षिण क्षेत्रीया क्रीडा स्पर्धा अस्य मासस्य अष्टाविंशे दिने आरप्स्यते। क्रीडा स्पर्धासु प्रतिभागाय दिसम्बर 15 दिनांकं यावत् पञ्जीकरणं कर्तुं शक्यते। श्रीलाल बहादुर शास्त्री केन्द्रीय संस्कृत विश्वविद्यालये नवदिल्लीस्थस्य केन्द्रीय संस्कृत विश्वविद्यालयस्य योजनान्तर्गतं दिल्ली राज्यस्तरीया शास्त्रीया स्पर्धा आयोजिता। द्विदिवसीया राज्यस्तरीया स्पर्धा गुरुवासरे पूर्तिं गता।
अयि सहृदयाः श्रोतारः, विदितमेव यन्मनुजाः उत्सवप्रियाः, विवाह पञ्चमीति श्रीराम जानकी विवाहोत्सवः सद्यः एव अशेष देशे आमानितः। तस्मात् अद्य बालमनोवल्लरी प्रभागे शृणुमः अपूर्वां श्रीराम कथाम्। सा च रुचिकर शैल्या प्रस्तूयते साधना शर्मणा।
बालाः जानन्ति वा रामजानक्यो विवाहः अग्रहायणमासे एव जातः। कथयामि इदानीम् इमां कथाम्। प्राचीनकाले मिथिलानगरे तपस्विनः धर्मनिष्ठस्य च महाराज्ञः जनकस्य पुत्र्याः सीतायाः विवाहाय समारोहः आयोजितः, यत्र जनकः उक्तवान् यत् मम पुत्री सीता सुशीला वर्तते, यः महाशक्तिमान् शिवधनुः उत्थापयितुं शक्नोति स एव तस्याः वरः भविष्यति। वचनमिदं श्रुत्वा सर्वेऽपि राजकुमाराः मिथिलां प्रति आगतवन्तः, किन्तु ते अस्य वचनस्य उपहासं कृतवन्तः। ते अनेकवारं प्रयत्नं कृतवन्तः, परन्तु कोऽपि धनुः चालयितुं न शक्तवान्। तत्र श्रीरामः गुरुविश्वामित्रेण सह आगतः आसीत्। विश्वामित्रः रामम् उवाच, राम शिवधनुः उत्थापय। रामः गुरुं नमस्कृत्य शिवधनुषः समीपं गत्वा धनुः अपि नतवान्। रामः सहजया शक्त्या धनुः हस्ते गृहीतवान्। ततः धनुः एकस्मिन्नेव क्षणे भग्नः जातः। जनकः प्रफुल्लितः सीता मङ्गलाच्छादनं धृत्वा श्रीरामं वरं स्वीकृतवती। तयोः विवाहः अत्यन्तम् उल्लासेन सम्पन्नः। अयोध्यानगरे सर्वेऽपि हर्षिताः अभूवन्। इत्थम् अस्याः कथायाः शिक्षा भवति, यः शीलः भवति तस्य सर्वत्रैव विजयः भवति।
मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र मम सहयोगिनी मुदिता वेतालः प्रस्तौति राष्ट्रियैक्यद्योतकं भारतीय नौसेना विषयकं संस्कृत हिन्दी राजस्थानी भाषा संगमम्।
प्रथमं वाक्यमस्ति, भारतीय नौसेना ऐतिह्यं चतुःशत वर्ष पुरातनम् अस्ति। पहला वाक्य है, भारतीय नौसेना का इतिहास 400 साल पुराना है। राजस्थानी में भारतीय नौसेना रो इतिहास 400 साल पुराणो है। द्वितीयं वाक्यमस्ति, दिसंबर मासस्य चतुर्थे दिने नौसेना दिवसः परिपाल्यते। दूसरा वाक्य है, 4 दिसंबर को भारतीय नौसेना दिवस मनाया जाता है। राजस्थानी में 4 दिसंबर रा भारतीय नौसेना दिवस मनायो जावे। तृतीयं वाक्यमस्ति, द्वादशाधिक षोडश शततमे वर्षे ईस्ट इंडिया कंपनी इत्यनेन समवायेन भारतीय नौसेना संगठिता। तीसरा वाक्य है, सन 1612 ईस्वी में ईस्ट इंडिया कंपनी ने इसकी स्थापना की थी। राजस्थानी में ईरी स्थापना सन 1612 ईस्वी मोए ईस्ट इंडिया कंपनी की नी।
प्रिया श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला सम्प्रति समापन्नास्ति। इमं कार्यक्रमं उपसंहर्तुं अनुज्ञायताम् एष दिव्यानन्दः। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल् सङ्केतः अस्ति nsdsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अङ्कम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मङ्गलम्।